అపరోక్షానుభూతి ఆది గ్రంథం భగవాన్స్ ఫస్ట్ మేనుస్క్రిప్ట్ ఇన్ విరూపాక్ష కేవ్ తిరువన్నామలై లెటర్ బై సూరి నగమ డేటెడ్ 27 మార్చ్ 1948. భగవాన్ ఆస్క్డ్ వన్ ఆఫ్ ది అటెండెంట్స్ టు టేక్ అవుట్ పళనిస్వామి స్మాల్ నోట్బుక్ విచ్ వాస్ ఇన్ ది డ్రాయర్. ది అటెండెంట్ టుక్ ఇట్ అవుట్ షుక్ ది డస్ట్ ఆఫ్ ఇట్ అండ్ హ్యాండెడ్ ఓవర్ టు మీ. ఇట్ ఈస్ ఎ వెరీ స్మాల్ నోట్బుక్ రిటర్న్ ఇన్ మలయాళం క్యారెక్టర్స్. Bhagavan said, Palani Swami asked me to copy out and give him some stanzas of Shankara. But where were notebooks or paper with us at that time? I collected every scrap of paper I could, stitched them together into a notebook, wrote out the stanzas and gave them to Palani Swami around the year 1900. In this small notebook, selections from about 10 books of Shankara have been written. So, this is the first book, I asked. Bhagavan said, yes. It's a very small pocket size notebook of 7 by 4.5 centimeter size of 145 pages. The contents of the notebook is Dakshinamurti Stotram, Atma Shatkam, Atma Panchakam, Vijnana Nauka, Atma Bodha, Maha Vakyartha Sloka Ashtakam, Vakyasudha, Kaupina Panchakam and Aparokshanubhuti, etc. Again, letter dated 1st February 1946. I was always immersed in meditation in Gurumurtam and Mango Grove in the year 1897-98. After some time, Palani Swami used to bring from various people a number of books containing Vedantic literature and used to read them. When I took those books in order to read them myself and tell them what was in them, I found that what all was written therein had already been experienced by myself. I was surprised. I wondered, what's all this? It is already written here in these books about myself. That was so in every one of those books. As whatever is written there has already been experienced by myself, I used to understand the text in no time. What took Palani Swami 20 days to read, I used to finish reading it in 2 days. He used to return the books and bring others. That is how I came to know about what was written in the books, said Bhagavan. Talks with Ramana Maharshi, talk number 240, devotee. The world is materialistic. What is the remedy for it? Maharshi, materialistic or spiritual? It is according to your outlook. Drishtim jnanamayam kritva pashyet brahmamayam jagat. Aparokshanubhuti, verse number 160. Make your outlook right. The creator knows how to take care of his creation. Again, quote from Suri Nagama's letters. When I was copying out part 2 of these letters, beginning with Drishtim Jnanamayam Kritva, I did not know where exactly this stanza occurred. I therefore went to the ashram a little earlier than usual to ask Bhagavan. Bhagavan was seated at leisure and I approached him and inquired in what book this stanza was to be found. He kindly told me that it was in the Tejo Bindu Upanishad and that Shankara had written the same thing in his Aparokshanubhuti. It means, said Bhagavan, that the aim, drishti, is not to concentrate on the tip of the nose or between the eyebrows. It should be to concentrate on the place where all the attributes of the seer, the seen and the act of seeing are dissolved. The meaning is that when the aim, jnanamaya, that is realization, is attained through meditation, enabling a man to understand his own nature and to see the way to be united with the Supreme Spirit, then the whole universe appears to be full of Brahman. The Adi Grantham, named in the Ashram archival system Malayalam manuscript of Bhagavan 422, with a few initial pages with Aparokshanubhuti, is reproduced from page number 216 of Swarnahastam. Atma Bodha, Self-Knowledge. This is a short Sanskrit text of Adi Shankara. In 68 verses, it describes the path to self-knowledge or the awareness of Atman. As in Viveka Chudamani, Adi Shankara teaches that the ultimate reality or Brahman, the foundation of all, is beyond name and form, is of the nature of pure consciousness. Letters from Sri Ramanashramam, dated 28th July and 30th September 1948. When Ramanashramam received a book published in Tamil in 1948 on Adi Shankara's Atmabodha, the expression of Bhagavan's face revealed that he felt that something was lacking. He then asked for the original Atmabodha from the ashram library. For a couple of days he went through it and began writing now and then. This turned out to be his Tamil translation of Atmabodha. Despite this inclination to undertake translating this work, since several translations already existed, Bhagwan was driven by an irresistible urge to carry on. Their familiarity was so striking that Bhagwan wondered if he was not simply reproducing what someone else had already written. He then narrated the story of Saint Jayadeva in this connection. Saint Jayadeva had composed his version of Bhagavatam. On hearing of it, the king appealed to the saint to present its premier recital, the first recitation for its analysis, Arangetram, in the court, while dignitaries and scholars would assemble for its hearing. Jayadeva was about to start when a scholar arrived on the scene. He addressed the king with due courtesy and impressed the audience with a verbal display of his mastery of the Shastras. Now, Saint Jayadeva implored the scholar to honor the assemblage by delivering the first recital of his Bhagavatam. Feigning disdain, the scholar thundered, "Who is the composer of this work? Have you not copied somebody else's work?" He then went on to recite the entire composition without once looking at Jayadeva's text. Jayadeva, realizing the true identity of the scholar, the Lord himself prayed to him to reveal his true form. Pleased with the stotras, prayers, Lord Jagannatha showed himself in the various forms in which Jayadeva had invoked him in his Bhagavatam and blessed him and disappeared. After narrating the story in detail, Bhagavan said, "In the same way, someone may quarrel with me saying that he had written the Tamil version of Atmabodha. In Virupaksha days, Bhagavan Ramana Maharshi copied the Atmabodha slokas in Malayalam script for Payani Swami, and then again he translated them into Tamil in 1948 and wrote the original texts of Sanskrit in Malayalam script. Both are reproduced in Swarnahastam from page 225 onwards."
Srimal Shankaracharya Virajita Avarokshanubhudihi Prarabhyade. Om Shri Harim Paramanandam Upadeshtaramishwaram Vyapakam Sarvaloganam Karanam Tam Namamyaham. Avarokshanubhudirvai Prochyate Moksha Siddhaye सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः सुवर्णाश्रमधर्मेण तपसा हरितोषणाल् साधनं प्रभवेल् पुंसाम् वैराग्यादिचतुष्टयम् ब्रह्मादिस्थावरान्देषु वैराग्यं विषयेष्वनु यथैव कागविष्ठायां वैराग्यं तद्हि निर्मलम् नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीदगम् एवं यो निश्चयः सम्यक् विवेको वस्तुनः स वै सदैव वासनात्यागः शमोऽयमिति शब्दिदः निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते विषयेभ्यः परावृत्तिः परमोपरिधिर्हि सा सहनं सर्वदुःखानां तिदीक्षा सा शुभामदा निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता चित्तैकाग्र्यं तु संलक्ष्ये समाधानमिति श्रुतम् संसारबन्धनिर्मुक्तिः कथं मे स्यात्कदा विधे इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता उक्तसाधनयुक्तेन विचारः पुरुषेण हि कर्तव्योज्ञानसिद्ध्यर्थम् आत्मनः शुभमिच्छता नोल्पद्यते विना ज्ञानम् विचारेणान्यसाधनैः यथा पदार्थभानं हि प्रकाशेन विना क्वचिल् कोऽहं कथमिदं जातं को वै कर्तास्य विद्यते उपादानं किमस्तीह विचारः सोऽयमीदृशः। नाहं भूतगणो देहो नाहं जाक्षगणस्तथा एतद्विलक्षणः कश्चिद् विचारस्सोऽयमीदृशः अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते संकल्पो विविधकर्ता विचारस्सोऽयमीदृशः एतयोर्यदुपादानम् एकं सूक्ष्मं सदव्ययम् यथैव मृद्घटादीनां विचारस्सोऽयमीदृशः अहं कोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः तदहं नात्र सन्देहो विचारस्सोऽयमीदृशः आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् आत्मा नियामगश्चान्तर्देहो बाह्यो नियम्यगः तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् आत्माज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् आत्मा प्रकाशगस्वच्छो देहस्तामस उच्यते तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् अपरोक्षानुभूतिः श्लोकं 21 ओन्वर्ड्स् आत्मा नित्यो हि सद्रूपो देहो नित्यो ह्यसन्मयः तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् आत्मनस्तत्प्रकाशत्वं यल्पदार्थावभासनं नाज्ञादिदीप्तिवर्धीप्तिर्भवन्त्यान्त्यं यथो निशि देहोऽहमित्ययं मूढो धृत्वा तिष्ठत्यहो जनः ममायमित्यभिज्ञात्वा खडदृष्टेव सर्वदा ब्रह्मैवाहं समशान्तः सच्चिदानन्दलक्षणः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निर्विकारो निराकारो निरवध्योऽहम् अव्ययः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निरामयो निराभासो निर्विकल्पोऽहमाततः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः निर्मलो निश्चलोऽनन्दः शुद्धोऽहमजरोऽमरः नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः स्वदेहे शोभनं सन्दं पुरुषाख्यं च सम्मतं किं मूर्खा शून्यमात्मानं देहातीतं करोषि भो स्वमात्मानं शृणु मूर्खत्वं श्रुत्या युक्त्या च पूरुषं देहातीतं सदाकारं सुदुर्दर्शं भवादृशैः अहं शब्देन विख्याता एक एव स्थितः परः स्थूलत्वे अनेकतां प्राप्तः कथं स्याद्देहगः पुमान् अहं दृष्टुतया सिद्धो देहो दृश्यतया स्थितः ममायमिति निर्देशाल् कथं स्याद्देहगः पुमान् अहं विकारहीनस्तु देहो नित्यं विकारवान् इति प्रतीयते साक्षाल् कथं स्याद्देहगः पुमान् यस्माल्परमिति श्रुत्या तया पुरुषलक्षणं विनिर्णीतं विमूढेन कथं स्याद्देहगः पुमान् सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते अप्युच्यते यतश्रुत्या कथं स्याद्देहगः पुमान् असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च अनन्दमलसंसृष्टः कथं स्याद्देहगः पुमान् तत्रैव च समाख्यातः स्वयं ज्योतिर्हि पुरुषः जडः परः प्रकाश्योऽसौ कथं स्याद्देहगः पुमान् प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः Nityascha talphalam bhungte deha padadanantaram lingam janega samyuktam chalam drishyam vigaricha avyabhagamasadrubam talkatham syalpumanayam evam dehadvayadanyaha atma purusha ishvaraha sarvatma sarvarupascha sarvadidohamavyayaha. Aparokshanubhudihi, slogam 41 onwards. Ityatmadeha bhagena prabanjasyeva satyata yadhokta tarkashastrena tadakim purushartada ityatmadeha bhedena dehatmatvam nivaridam idanim deha bhedasya hyasatyam sphudamuchyate चैतन्यस्येक रूपत्वात् भेदो युक्तो न कर्हिचिल् जीवत्वं च मृषा ज्ञेयं रज्जो सर्पग्रहो यथा रज्ज्वज्ञानाल्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी भाति तद्वल्चिदि साक्षात् विश्वागारेण केवला उपादानं प्रपञ्चस्य ब्रह्मणो अन्यद् न विद्यते तस्मात् सर्वः प्रपञ्चोऽयं ब्रह्मे वास्ति न चेदरल् व्याप्य व्यापगता मिथ्या सर्वमात्मेति शासनाल् इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः श्रुत्या निवारितं नूनं नानात्वं सुमुखेन हि कथं भासो भवेदन्यः स्थिते चाद्वयकारणे दोषो विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति इह पश्यति नानात्वं मायया वञ्चितो नरः ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेल् ब्रह्मैव सर्वनामानि रूपाणि विविधानि च कर्माण्यपि समग्राणि बिभर्ति इति श्रुतिर्जगौ सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतं ब्रह्मणो जायमानस्य ब्रह्मत्वं च तदा भवेल् स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः यः सन्तिष्ठति मूढात्मा भयं तस्याभिभाषितम् यत्राज्ञानाद्भवेद्वैतम् इतरस्तत्र पश्यति आत्मत्वेन यदा सर्वं नेतरस्तत्र जाण्वपि यस्मिन् सर्वाणि भूतानि ह्यात्मत्वेन विजानदः न वै तस्य भवो मोहो न च शोको द्वितीयतः अयमात्मा हि ब्रह्मैव सर्वात्मगतया स्थितः इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् असद्रूपो यथा स्वप्न उत्तरक्षणबाधदः स्वप्नो जागरणे लीनः स्वप्नेऽपि जागरो न हि द्वयमेव लये नास्ति लयो हि ह्युभयोर्न च त्रयमेवं भवेद्मिथ्या गुणत्रयविनिर्मितम् अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मगः यद्वद् मृदिघटभ्रान्तिः सुप्तौ वा रजतस्थितिम् तद्वल्ब्रह्मणि जीवत्वम् वीक्ष्यमाणेन पश्यति यथा मृदिघटो नाम कनके कुण्डलाभिधा सुप्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे.
Aparokshanubhuti, slogam number 61 onwards. Yadheva vyomni neelatvam, yadha neeram marusthale, purushatve yadha sthano, tadvan vishvam chidatmani, yadheva shunye vaitalo, gandharvanam puram yadha, yadha kashe dvichandratvam, tadvan satye jagatstidihi, yadha taranga kallolaihi, जलमेव स्फुरत्यलम् पात्ररूपेण ताम्रम् हि ब्रह्माण्डौघैस्तथात्मदा घटनाम्ना यथा पृथ्वी படநாம்னா ஹிதந்தவஹா ஜகத்நாம்னா சிதாபாதி ஞேயம் தத்ததபாவதஹா சர்வோ விவ்யவஹாரஸ்து ப்ரஹ்மணா க்ரியதே ஜனைஹி அஜ்ஞானாத்ந விஜானந்தி மிருதே வஹி கடாதிகம் காரியகாரணதா நித்யம் ஆஸ்தே க்ரடம் மிருதோர்யதா ததேவ ஸ்ருதி யுக்திப்யாம் பிரபஞ்ச ப்ரஹ்மணோரிஹா கிருஹ்யமாணே கடே யத்வத் மிருத்திகா பாதி வைபலாத் வீக்ஷ்யமாணே பிரபஞ்சேபி ப்ரஹ்மைவாபாதி பாசுரம் சதைவாத்மா விசுத்தோஸ்தி ஹ்யசுத்தோ பாதி வை சதா யதேவ த்விதாரஜுர் ஜ்ஞானினோ அஜ்ஞானினோ நிஷம் யதேவ மிருண்மய கும்பஹ தத்வத் தேஹோ விஜின்மய ஆத்மானாத்ம விபாகோயம் முதேவ க்ரியதே புதைஹி சர்பத்வேன யதாரஜுர் ரஜதத்வேன சுக்திகா விநிர்ணீதா விமூடேன தேஹத்வேன யதாத்மதா கடத்வேன யதா பிருத்வி படத்வேனைவ தந்தவஹா விநிர்ணீதா விமூடேன தேஹத்வேன யதாத்மதா கனகம் குண்டலத்வேன தரங்கத்வேன வைஜலம் விநிர்ணீதா விமூடேன தேஹத்வேன யதாத்மதா புருஷத்வே யதாஸ்தாணுர் ஜலத்வேன மரீஜிகா விநிர்ணீதா விமூடேன தேஹத்வேன யதாத்மதா க்ருஹத்வேனைவ காஷ்டானி கட்கத்வேனைவ லோஹதா விநிர்ணீதா விமூடேன தேஹத்வேன யதாத்மதா யதா வ்ருக்ஷ விபர்யாஸோ ஜலாத் பவதி கஸ்யசித் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ போதேன கச்சத பும்ஸஹ ஸர்வம் பாதீவ சஞ்சலம் தத்வத் ஆத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ பீதத்வம் ஹி யதா சுப்ரே தோஷாத் பவதி கஸ்யசித் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ சக்ஷுர்பியாம் ப்ரமசீலாப்யாம் ஸர்வம் பாதீ ப்ரமாத்மகம் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ அலாதம் ப்ரமணேனைவ வர்த்துளம் பாதி சூர்யவல் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ மஹத்வே ஸர்வ வஸ்தூநாம் அணுத்வம் ஹ்யதிதூரதஹ தத்வத் ஆத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ காஜபூமௌ ஜலத்வம் வா ஜலபூமௌ ஹி காஜதா தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ யத்வதாக்னௌ மணித்வம் ஹி மணோ வா வன்னிதா புமான் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ அப்ரேஷு சத்சு தாவத்சு சோமோ தாவதி பாதி வை தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ யதேவ திக்விபர்யாஸோ மோஹாத் பவதி கஸ்யசித் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ யதா சசீ ஜலே பாதி சஞ்சலத்வேன கஸ்யசித் தத்வதாத்மனி தேஹத்வம் பஷ்யத்யஜ்ஞானயோகதஹ ஏவம் ஆத்மன்ய வித்யாதோ தேஹாத்யாஸோ ஹி ஜாயதே ஸ ஏவாத்மா பரிஜ்ஞானாத் லீயதே ச பரமாத்மனி சர்வமாத்மதயா ஜ்ஞாதம் ஜகத் ஸ்தாவர ஜங்கமம் அபாவாத் சர்வ பாவானாம் தேஹஸ்ய ச ஆத்மதா குதஹ ஆத்மானம் சததம் ஜானன் காலம் நய மஹாத்யுதே பிராரப்தமகிலம் புஞ்சன் நோத்வேகம் கர்த்துமர்ஹசி உல்பன்னே ஹ்யாத்ம விஜ்ஞானே பிராரப்தம் நைவ முஞ்சதி இதி யத் ஸ்ரூயதே சாஸ்திரைர் தர்நிராக்ரியதே அதுனா தத்வத் ஞானோதயா மூர்த்வம் பிராரப்தம் நைவ வித்யதே தேஹாதீனாம் அசத்வத்வாத் யதா ஸ்வப்னோ விபோததஹ கர்மஜன்மாந்தரீயம் எல் பிராரப்தமிதி கீர்த்திதம் தத்து ஜன்மாந்தராபாவால் பும்சோ நைவாஸ்தி கர்ஹிஜில் स्वप्नदेहो यथा अध्यस्तः तदेवायं हि देहगः अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते अज्ञानं चैव वेदान्तैः तस्मिन्नष्टे क्व विश्वता यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमाल् तद्वत् सत्यमविज्ञाय जगल्पश्यति मूढधीः रज्जुरूपे परिज्ञाते सर्पघण्डं न तिष्ठति अधिष्ठाने तथा ज्ञाते प्रभञ्जशून्यतां गतः देहस्यापि प्रपञ्चत्वात् प्रारब्धावस्थितिः कुतः अज्ञानिजनबोधार्थम् प्रारब्धम् भक्ति वै श्रुतिः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे बहुत्वम् तन्निषेधार्थम् श्रुत्या गीतम् च यत्स्फुटम् उच्यते अज्ञेर्बलाच्चैतत् तदानर्थद्वयागमः वेदान्तमदहानम् च यतोऽज्ञानमिति श्रुतिः त्रिपञ्चाङ्गान् यथो वक्ष्य पूर्वोक्तस्याहि लब्धये तैश्च सर्वैः सदा कार्यम् निदिध्यासनमेव तु अपरोक्षानुभूतिः श्लोकम् 101 ओन्वर्ड्स् नित्याभ्यासादृते प्राप्तिर्न भवेत् सच्चिदात्मनः तस्माद्ब्रह्मा निदिध्यासे जिज्ञासुः श्रेयसे चिरम् यमो हि नियमस्त्यागो मौनम् देशश्च कालता आसनम् मूलबन्धश्च देहसाम्यम् च दृक्स्थितिः प्राणसंयमनश्चैव प्रत्याहारम् च धारणा आत्मध्यानम् समाधिश्च प्रोक्तान्यङ्गानि वैक्रमाल् सर्वम् ब्रह्मेति विज्ञानाल् इन्द्रियघ्रामसंयमः यमोऽयमिति सम्प्रोक्तो अभ्यसनीयो मुहुर्मुहुः सजातीयप्रवाहश्च विजातीयतिरस्कृतिः नियमो हि परानन्दो नियमाल् क्रियते बुधैः त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनाल् त्यागो हि महदाम् पूज्यः सद्यो मोक्षमयो यतः यस्माद्वाजो निवर्तन्ते अप्राप्य मनसा सह यन्मौनम् योगिभिर्गम्यम् तद्भवेत् सर्वदा बुधः वाजो यस्माद् निवर्तन्ते तद्वक्तुम् केन शक्यते प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः इति वा तद्भवेद्मौनम् सदाम् सहजसञ्ज्ञितम् गिरामौनम् तु बालानाम् प्रयुक्तम् ब्रह्मवादिभिः आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते येनेदम् सततम् व्याप्तम् सदेशो विजनस्मृदः कलनात् सर्वभूतानाम् ब्रह्मादीनाम् निमेषतः कालशब्देन निर्दिष्टो ह्यगण्डानन्दमद्वयः सुखेनैव भवेद्यस्मिन् अजस्रम् ब्रह्मचिन्तनम् आसनम् तद्विजानीयात् नेतरत् सुखमासनम् सिद्धम् यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् यस्मिन् सिद्धा समाविष्टा तद्वै सिद्धासनम् विदुः यन्मूलम् सर्वभूतानाम् यन्मूलम् चित्तबन्धनम् मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् अङ्गानाम् समताम् विद्यात् समे ब्रह्मणि लीयते नो चेत् नैव समानत्वम् ऋजुत्वम् शुष्कवृक्षवल् दृष्टिम् ज्ञानमयीम् कृत्वा पश्येल्ब्रह्ममयम् जगल् सा दृष्टिः परमोदारा न नासाग्रावलोगिनी दृष्टृदर्शनदृश्यानाम् विरामो यत्र वा भवेल्दृष्टित्तत्रैव कर्तव्या न नासाग्रावलोगिनी चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनाल् నిరోధాః సర్వవృత్తీనాం ప్రాణాయామః స ఉచ్యతే. నిషేధనం ప్రపంచస్య రేజగాఖ్యః సమీరణః. బ్రహ్మేవాస్మీతి యా వృత్తిః పూరగో వాయురీరిదః. తదస్తద్వృత్తినైశ్చల్యం కుంభగః ప్రాణసంయమః. అయం చాపి ప్రబుద్ధానాం అజ్ఞానాం ఘ్రాణపీడనం. విషయేష్వాత్మదాం దృష్ట్వా మనసశ్చితి చిదిమజ్జనం. ప్రత్యాహారస్స విజ్ఞేయో అభ్యసనీయో ముముక్షుభిః. యత్ర యత్ర మనోయాది బ్రహ్మణస్తత్ర సదర్శనాల్. మనసోధారణం చైవ ధారణాసా పరామదా. బ్రహ్మేవాస్మీది సద్వృత్యా నిరాలంబదయా స్థితిః. ధ్యానశబ్దేన విఖ్యాతా పరమానందదాయిని. నిర్వికారతయా వృత్త్యా బ్రహ్మాగారతయా పునః. వృత్తివిస్మరణం సమ్యక్ సమాధిజ్ఞానసంజ్ఞగః. ఇమం చాకృత్రిమానందం తావత్ సాధు సమభ్యసేల్. వశ్యో యావల్క్షణాల్పుంసః ప్రయుక్తః సంభవేత్ స్వయం.
అపరోక్షానుభూతి. శ్లోకం 125 ఆన్వర్డ్స్. తథ సాధన నిర్ముక్తః సిద్ధో భవతి యోగిరాడ్. తత్స్వరూపం న చైతస్య విషయో మనసా గిరాం. సమాధో క్రియమాణే తు విఘ్నాన్యాయాంది వై బలాల్. అనుసంధానరాహిత్యం ఆలస్యం భోగలాలస. లయస్తమశ్చ విక్షేపో రసాస్వాదశ్చ శూన్యత. ఏవం యద్విఘ్న బాహుళ్యం త్యాజ్యం బ్రహ్మవిదాశనైః. భావవృత్యా హి భావత్వం శూన్యవృత్యా హి శూన్యత. బ్రహ్మవృత్యా హి పూర్ణత్వం తథా పూర్ణత్వమభ్యసేల్. ఏ హి వృత్తిం జహత్యేనాం బ్రహ్మాఖ్యాం పావనీం పరాం. తేతు వృధేవ జీవంతి పశుభిశ్చ సమానరాః. ఏ హి వృత్తిం విజానంతి జ్ఞాత్వాపి వర్ధయంతి యే. తేవే సల్పురుషా ధన్యా వంధ్యాస్తే భువనత్రయే. ఏషాం వృత్తిః సుమావృద్ధా పరిపక్వా చ సా పునః. తే వై సల్బ్రహ్మతాం ప్రాప్తా నేతరః శబ్దవాదినః. కుశలా బ్రహ్మవార్తాయాం వృత్తిహీనా సురాగిణః. తేప్యజ్ఞానితయా నూనం పునరాయాంది యాంది చ. నిమేషార్ధం న తిష్టంది వృత్తిం బ్రహ్మమయీం వినా. యథా తిష్టంది బ్రహ్మాద్యాః సనగాద్యాః శుగాదయః. కార్యే కారణతాయాత కారణే నహి కార్యత. కారణత్వం తదో గచ్ఛేల్ కార్యాభావే విచారతః. అధ శుద్ధం భవేద్వస్తు యద్వై వాజామగోచరం. ద్రష్టవ్యం మృద్ఘటేనైవ దృష్టందేన పునఃపునః. అనేనైవ ప్రగారేణ వృత్తిర్బ్రహ్మాత్మికా భవేల్. ఉదేదీ శుద్ధచిత్తానాం వృత్తిజ్ఞానం తతః పరం. కారణం వ్యతిరేకేణ పుమానాదో విలోగయేల్. అన్వయేన పునస్తద్ధి కార్యే నిత్యం ప్రపశ్యతి. కార్యే హి కారణం పశ్యేల్ పశ్చాల్ కార్యం విసర్జయేల్. కారణత్వం తదో గచ్ఛేద్ అవశిష్టం భవేన్మునిః. భావిదం తీవ్రవేగేన యద్వస్తు నిశ్చయాత్మనా. పుమాంస్తన్ హి భవేత్ శీఘ్రం జ్ఞేయం భ్రమరకీడవల్. అదృశ్యం భావరూపం చ సర్వమేవ చిదాత్మగం. సావధానతయా నిత్యం స్వాత్మానం భావయేల్బుధః. దృశ్యం హ్యదృశ్యతం నీత్వా బ్రహ్మాగారేణ చిందయేల్. విద్వాన్ నిత్యసుఖే తిష్టే ధియా చిద్రసపూర్ణయా. ఏభిరంగేర్సమాయుక్తో రాజయోగ ఉదాహృదః. కింజిల్ పక్వకషాయాణాం హఠయోగేన సంయుధః. పరిపక్వం మనో యేషాం కేవలోయం జ సిద్ధిః. గురుదైవత భక్తానాం సర్వేషాం సులభో జవాల్. ఇది ശ്രീമത് ശങ്കരാചാര്യ വിരചിത അപരോക്ഷാനുഭൂതി സമ്പൂർണം. ഓം തത്സൽ. ബ്രഹ്മാർപ്പണമസ്തു.
പേജ് നമ്പർ 229. ആത്മബോധ. ശ്രീഹി മംഗളാചരണം. ആഹാത്മബോധമാചാര്യോ യോ അസ്മദാത്മാഹി ശങ്കര ബോധരൂപഃ സയേവ ശ്രീ രമണോ ഹൃദി രാജതേ. വിശ്വനാഥ.
തപോഭിക്ഷീണ പാപാനാം ശാന്താനാം വീതരാഗിണാം മുമുക്ഷൂണാമപേക്ഷോയം ആത്മബോധോ വിധീയതേ. ബോധോന്യസാധനേഭ്യോ ഹി സാക്ഷാന്മോക്ഷൈകസാധനം പാകസ്യ വഹ്നിവജ്ഞാനം വിനാ മോക്ഷോ ന സിദ്ധ്യതി. അവിരോധിതയാ കർമ്മ നാവിദ്യാം വിനിവർത്തയേത് വിദ്യാ വിദ്യാമിഹന്ത്യേവ തേജസ്തിമിഹ സംഭവത്. അവിച്ഛിന്ന ഇവാജ്ഞാനാത് സന്നാശേ സതി കേവലഃ സ്വയം പ്രകാശതേ ഹ്യാത്മാ മേഘാപായേം സുമാൻ ഇവ. അജ്ഞാനകൽഷം ജീവം ജ്ഞാനാഭ്യാസാദ് വിനിർമ്മലം കൃത്വാ ജ്ഞാനം സ്വയം നശ്യേത് ജലം കതകരേണുവത്. സംസാര സ്വപ്നതുല്യോ ഹി രാഗദ്വേഷാദി സംകുലഃ സ്വകാലേ സത്യവദ്ഭാതി പ്രബോധേ സത്യവത് ഭവേ. താവത് സത്യം ജഗദ്ഭാതി ശുക്തികാരജതം യഥാ യാവന്ന ജ്ഞായതേ ബ്രഹ്മ സർവാധിഷ്ഠാനമദ്വയം. ഉപാദാനേഖിലാധാരേ ജഗന്തി പരമേശ്വരേ സർഗസ്ഥിതി ലയാന്യാന്തി ബുദ്ബുദാനീവ വാരിണി. സച്ചിദാത്മന്യനുസ്യൂതേ നിത്യേ വിഷ്ണൌ പ്രകൽപിതാഃ വ്യക്തയോ വിവിധാഃ സർവാ ഹാടകേ കടകാദിവത്. യഥാകാശോ ഹൃഷീകേശോ നാനോപാധിഗതോ വിഭുഃ തദ്ഭേദാത് ഭിന്നവദ്ഭാതി തന്നാശേ കേവലോ ഭവേ. നാനോപാധിവശാദേവ ജാതിനാമാശ്രമാദയഃ ആത്മന്യാരോപിതാസ്തോ യേ രസവർണാതിഭേദവത്. പങ്ക്ചീകൃതമഹാഭൂത സംഭവം കർമ്മ സഞ്ചിതം ശരീരം സുഖദുഃഖാനാം ഭോഗായതനമുച്യതേ. പഞ്ചപ്രാണമനോബുദ്ധി ദശേന്ദ്രിയസമന്വിതം അപഞ്ചീകൃതഭൂതോത്ഥം സൂക്ഷ്മാംഗം ഭോഗസാധനം. അനാദ്യവിദ്യാനിർവാച്യ കാരണോപാധിരുച്യതേ ഉപാധിത്രിതയാദന്യം ആത്മാനം അവധാരയേത്. പഞ്ചകോശാദിയോഗേന തത്തന്മയ ഇവ സ്ഥിതഃ ശുദ്ധാത്മാ നീലവസ്ത്രാദി യോഗേന സ്ഫടികോ യഥാ. വപുസ്തുഷാദിഭിഃ കോശൈഃ യുക്തം യുക്ത്യവഘാതതഃ ആത്മാനമാന്തരം ശുദ്ധം വിവിഞ്ചാത്തണ്ഡുലം യഥാ. സദാ സർവഗതോപ്യാത്മാ ന സർവത്രാവഭാസതേ ബുദ്ധാവേവാവഭാസേത स्वच्छेषु प्रतिबिम्बवत् देहेन्द्रिय मनो बुद्धि प्रकृतिभ्यो विलक्षणम् तद्वृत्ति साक्षिणम् विद्यात् आत्मानम् राजवत् सदा व्यापृतेष्विन्द्रियेषु आत्मा व्यापारो वा विवेकिनाम् दृश्यते भ्रेषु धावत्सु धावन्निव यथा शशि आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः स्वकीयार्थेषु वर्तन्ते सूर्यालोकम् यथा जनाः देहेन्द्रियगुणान् कर्माणि अमले सच्चिदात्मनि अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् अज्ञानान्मानसोपाधे कर्तृत्वादीनि चात्मनि कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः रागेच्छा सुखदुःखादि बुद्धौ सत्याम् प्रवर्तते सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः प्रकाशोऽर्कस्य तो यस्य शैत्यम् अग्निर्यथोष्णता स्वभावः सच्चिदानन्द नित्यनिर्मलतात्मनः आत्मनः सच्चिदं शश्च बुद्धेर्वृत्तिरिति द्वयम् संयोज्य चाविवेकेन जानामीति प्रवर्तते आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्वपि जीवः सर्वमलम् ज्ञात्वा कर्ता द्रष्टेति मुह्यति रज्जुसर्पवदात्मानम् जीवम् ज्ञात्वा भयम् वहेत् नाहम् जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् आत्मा बभासयत्येको बुद्ध्यादीनीन्द्रियाण्यपि दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते स्वबोधेनान्यबोधे च बोधरूपतयात्मनः न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने निषिध्य निखिलोपाधीन् नेति नेतीति वाक्यतः विद्यादैक्यम् महावाक्यैः जीवात्मा परमात्मनोः आविद्यकम् शरीरादि दृश्यम् बुद्बुदवक्षरम् एतद्विलक्षणम् विद्यात् अहम् ब्रह्मेति निर्मलम् देहान्यत्वान्न मे जन्म जराकार्षालयादयः शब्दादि विषयैः सङ्गो निरिन्द्रिय तयान च अमनस्त्वान्न मे दुःख रागद्वेषभयादयः अप्राणोह्यमनाशुभ्र इत्यादि श्रुतिशासना निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः अहमाकाशवत् सर्व बहिरन्तर्गतोच्युतः सदा सर्वसमसिद्धो निःसङ्गो निर्मलोऽचलः नित्यशुद्ध विमुक्तैकम् अखण्डानन्दमद्वयम् सत्यम् ज्ञानमनन्तम् यत् परम् ब्रह्माहमेव तत् एवम् निरन्तराभ्यस्ता ब्रह्मैवास्मीति वासना हरत्य विद्या विक्षेपान् रोगान्निवरसायनम् बिभिक्त देशे आसीनो विरागो विजितेन्द्रियः भावयेदेकमात्मानम् निर्मलाकाशवत् सदा आत्मन्येवाखिलम् दृश्यम् प्रविलाप्य धिया सुधीः भावयेदेकमात्मानम् निर्मलाकाशवत् सदा रूपवर्णादिकम् सर्वम् विहाय परमार्थवित् परिपूर्णचिदानन्द रूपेण अवतिष्ठते ज्ञातृज्ञानज्ञेयभेदः परमात्मनि न विद्यते चिदानन्दैकरूपत्वात् दीप्यते स्वयमेव हि एवमात्मा रणौ ध्यान मथने सततम् कृते उदित अवगतिज्वाला सर्वज्ञानेन्धनम् दहेत् अरुणेनेव बोधेन पूर्वम् सन्तमसे हृते तत आविर्भवेदात्मा स्वयमेवांशुमानिव आत्मा तु सततम् प्राप्तो अप्यप्राप्तवद विद्यया तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणम् यथा स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता जीवस्य तात्विके रूपे तस्मिन् दृष्टे निवर्तते सत्त्वस्वरूपानुभावात् उत्पन्नम् ज्ञानमञ्जसा अहम् ममेति चाज्ञानम् बाधते दिग्भ्रमादिवत् सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलम् स्थितम् एकम् च सर्वमात्मानम् ईक्षते ज्ञानचक्षुषा आत्मैवेदम् जगत् सर्वम् आत्मन्योन्यन्न किञ्चन मृदो यद्वद्घटादीनि स्वात्मानम् सर्वमीक्षते जीवन्मुक्तस्तु तद्विद्वान् पूर्वोपाधिगुणान् त्यजेत् स सच्चिदादिधर्मत्वात् जे जे भ्रमरकीटवत् तीर्त्वा मोहार्णवम् हत्वा रागद्वेषादिराक्षसान् योगी शान्ति समायुक्त आत्मा रामो विराजते बाह्या नित्यसुखासक्तिम् हित्वात्मसुखनिर्वृतः घटस्तदीपवच्छस्वत् अन्तरेव प्रकाशते उपाधिस्तोऽपि तद्धर्मैः अलिप्तो व्योमवन्मुनिः सर्वविन्मूढवत्तिष्ठेत् असक्तो वायुवच्चरेत् उपाधिविलयाद्विष्णौ निर्विशेषम् विषेन्मुनिः जले जलम् वियद्व्योम्नि तेजस्तेजसि वा यथा यल्लाभान्नापरो लाभो यत्सुखात्नापरम् सुखम् यज्ज्ञानात्नापरम् ज्ञानम् तद्ब्रह्मेत्यवधारयेत् यद्दृष्ट्वा नापरम् दृश्यम् यद्भूत्वा न पुनर्भवः यज्ञात्वा नापरम् ज्ञेयम् तद्ब्रह्मेत्यवधारयेत् त्रियगूर्ध्वम् अधः पूर्णम् सच्चिदानन्दमद्वयम् अनन्तम् नित्यमेकम् यत् तद्ब्रह्मेत्यवधारयेत् तद्व्यावृत्तिरूपेण वेदान्तैलक्ष्यते व्ययम् अखण्डानन्दमेकम् यत् तद्ब्रह्मेत्यवधारयेत् अखण्डानन्दरूपस्य तस्यानन्दलनाश्रिताः ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः तद्युक्तम् अखिलम् वस्तु व्यवहारश्चिदन्वितः तस्मात् सर्वगतम् ब्रह्म क्षीरे सर्पिरिवाखिले अनण्वस्थूलमह्रस्वम् अदीर्घम् अजमव्ययम् अरूपगुणवर्णाख्यम् तद्ब्रह्मेत्यवधारयेत् यद्भासा भासतेर्कादि भाष्यरियत्तु न भाष्यते येन सर्वम् इदम् भाति तद्ब्रह्मेत्यवधारयेत् स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलम् जगत् ब्रह्म प्रकाशते वह्निः प्रतप्तायस्तपिण्डवत् जगद्विलक्षणम् ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन ब्रह्माण्यद्भाति चेत् मिथ्या यथा मरुमरीचिका दृश्यते श्रूयते यद्यद् ब्रह्मणोऽन्यन्न तद्भवेत् तत्त्वज्ञाना च तद्ब्रह्म सच्चिदानन्दमद्वयम् सर्वगम् सच्चिदानन्दम् ज्ञानचक्षुर्निरीक्षते अज्ञानचक्षुर्नेक्षेत भास्वन्तम् भानुमन्धवत् श्रवणादिभिरुद्दीप्त ज्ञानाग्निपरितापितः जीवः सर्वमलान्मुक्तः स्वर्णवद्योतते स्वयम् हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत् सर्वव्यापी सर्वधारी भाति सर्वम् प्रकाशते दिग्देशकालाद्यनपेक्ष सर्वगम् शीतादिहृन्नित्य सुखम् निरञ्जनम् यस्वात्मतीर्थम् भजते विनिष्क्रिय स सर्ववित्सर्वगतोऽमृतो भवेत्
अथ आत्मषड्कम् गुरुस्तुति सर्वतन्त्रस्वतन्त्राय सदद्वेदात्मवेदिने श्रीमते शङ्करार्याय वेदान्तगुरवे नमः मनोबुद्ध्यहङ्कारचित्तादिनाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे न च व्योमभूमिर्न तेजो न वायुश्चिदानन्दरूपशिवोऽहं शिवोऽहं न च प्राणसंज्ञो न वै पञ्चवायुर्न वा सप्तधातुर्न वा पञ्चकोशः न वाक्पाणिपादं न चोपस्तपायुश्चिदानन्दरूपशिवोऽहं शिवोऽहम् न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मत्सर्यभावः न धर्मो न चार्थो न कामो न मोक्षश्चिदानन्दरूपशिवोऽहं शिवोऽहम् न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न देवा न यज्ञाः अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपशिवोऽहं शिवोऽहम् न मृत्युर्न शङ्गा न मे जातिभेदः पिता नैव मे नैव माता च जन्म न बन्धुर्न मित्रं गुरुर्नैव शिष्यश्चिदानन्दरूपशिवोऽहं शिवोऽहम् अहं निर्विकल्पो निराकाररूपो विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणां न चासङ्गतं नैव मुक्तिर्न मे यश्चिदानन्दरूपशिवोऽहं शिवोऽहम् इति श्रीमच्छङ्कराचार्यविरचितम् आत्मषड्कं सम्पूर्णं ब्रह्मार्पणमस्तु।